राम गीता जी का पाठ 11वां अध्याय श्लोक 12 से 22 तक। राम
वसुदेव सुतं हंसजानोरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं देवि सूर्यसहस्रस्य भवेद्युगपदोत्थिता यदि भासदृशि स स्यात् वासस्तस्य महात्मना तथैकस्तं जगत्कृष्णं प्रविभक्तमनेकधा अपश्य देवदेवस्य शरीरे पाण्डवस्तदा तत स विस्मयावेष्टो श्रेष्ठरो माधनञ्जय प्रणम्य शिरसा देवं श्रिताञ्जलिरभासत। पश्यामि देवास्तव देवदेहे शर्मास्तथा भूतविशेषसंज्ञान् ब्रह्मानमीशं कमलासनश्च विशेष सर्वानुर्गास्त दिव्यान् अनेकबाहूदरवक्कलेशम् पश्यामि त्वां सर्वतो मान्तं पुनस्तवामि पश्यामि विश्वेश्वर कीरीतिनं गरिनं चक्रिणं च तेजो राधें सर्वतो त्वमाक्षरं परमं वेदितव्यं त्वमस्ति विश्वस्य परं विधानं त्वमव्ययः शाश्वतधर्मगोप्तः सनातनस्त्वं गुरुतो अनादिमध्यान्तमनन्तवीर्य मनन्त्वाहुंसि सूर्यमेतम् पश्यामि त्वां दीप्तभुदासवक्त्रं स्वदेव सावेश्वमिदं तवन्तम् यावापृथिव्योरिदमन्तरम् व्याप्तं त्वयैकेन दिशस्तृतं भूतलोकं सवेदं लोकत्रयं काव्यधिकम् अमीहि त्वां पुरसङ्घाविशन्ति केचिद्गीताः पाण्डवयो महर्षिसिद्धसङ्गा स्तुवन्ति त्वां स्तुतिभिपुष्टदारे भूत्रादित्या वसवो ये स्वसाध्या विश्वेष्णौ मरुतस्तुष्णकाश्च सुरसिद्धसङ्गा वीक्षन्ति त्वां विस्मितास्तैव सर्वे भूत्रादित्या वसवो ये स्वसाध्या विश्वेष्णौ मरुतस्तुष्णकाश्च गन्धर्व सुर से दसंगा
हरे शरणम 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 हरे शरणम।